పరహ్యస్తున పాఠే
డే బిఫోర్ ఎస్టల్
తత్ర ఏకో విషయ అవశిష్ట ఉపసర్గేణ త్వాంతలెబంతేషు కిం పరివర్తనం భవతి ఇది తత్ర
సూత్రం వర్తతే
समासे अनन्य पूर्वे तो लेप अस्य अर्थः यदा अव्ययेन सह क्रियापदस्य लिखन्तु నంసమాసం హిత్వా అన్యత్ర అవేన సహ క్రియాపదస్య సంబంధే ధాతో సంబంధే క్రియాపదస్య సంబంధే క్రియాయా సంబంధే త్వా ప్రత్యయస్య ఉపరి లెప్ ఆదేశ త్వోహ త్వోహ ఇత్యుక్తే త్వా త్వాకారస్య త్వాస్థానే త్వాస్థానే లెబాదేశ త్వాస్థానే లెబాదేశ యథా ఉదాహరణే గత్వా ఇతి భవంతః తత్ర ఏతదపి త్వా ఇతి లెప్ ఇతి ప్రత్యయద్వయం త్వా ఇతి లెప్ ఇతి ప్రత్యయద్వయం త్వా ఇతి వర్తతే లెప్ ఇతి వర్తతే తత్ర లెప్ త్వా లెప్ ఇతి ఏకస్మిన్ వాక్యే ఏకకర్తృ కర్తృకం క్రియాద్వయం సంపతతి చేత్ తత్ర పూర్వక్రియాయాః త్వాంతేన వా లెబంతేన వా నిర్వాహ కర్తవ్యః ఏకస్మిన్ వాక్యే తత్ర వాక్యస్య సంబంధః ఏకకాలే ఇతి కించిత్ లిఖితం వర్తతే తత్ర కాలే ఇతి న ఏకకాలే క్రియాద్వయం న భవతి కుత్రాపి కార్యం కృత్వా అన్యత్ కార్యం కాలే ఇతి న భవతి అతః ఏకస్మిన్ వాక్యే శబ్దానాం పదానాం చ సంబంధః వాక్యేన సహ అతః ఏకస్మిన్ వాక్యే ఏకకర్తృకం కార్యద్వయం యదా సంపతతి తదా పూర్వకార్యస్య లెబంతం వా త్వాంతం వా భవతి గృహం గత్వా గృహం గత్వా భోజనం కరోతి రామః కోపి రామః గృహం గత్వా భోజనం కరోతి ఏకస్మిన్నే వాక్యే ఏకకర్తృకః రామకర్తృకః కర్తృకః कर्तृत्वं क्रियाद्वयं रामा एव गच्छति रामेणैव भोजनं क्रियते तदा गृहं रामः गृहं गच्छति भोजनं करोति इति वाक्यद्वयसन्दर्भे एकस्मिन्नेव वाक्ये तस्य योजनसन्दर्भे पूर्वस्य पूर्वक्रियायाः त्वान्तं वा लेबन्तं वा भवति लेबन्तः कदा इत्युक्ते समासे अनन्यपूर्वे तो लेप् यत्र अव्ययेन सह क्रियापदस्य सम्बन्धः भवति समासः भवति तदा कः अव्ययः उपसर्गः एव अव्ययः
अव्ययम् अत्रैव गृहं गत्वा इत्युक्ते अत्र आ इति यदि उपसर्गं निवेशामः आगत्य रामः गृहम् आगत्य भोजनं करोति गृहं गत्वा भोजनं करोति अत्र आ इति उपसर्गः वर्तते अतः आगत्वा इति नोक्तव्यम् आगत्वा इति नोक्तव्यम् आगत्य इत्येव उक्तं तत्र आ इति तत्र उपसर्गः एव किन्तु सूत्रे वृत्तिकारैः अव्ययम् इति निवेशितम् अव्ययत्वेन
क्रियात्रयम्
अस्ति चेत् क्रियात्रयं तत्रापि गत्वा त्वान्तमेव भवति पूर्वपूर्वस्य पूर्वं तत्कृत्वा 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 इति क्रियं वा कति वा कार्याणि भवन्ति तत्र अकृतम् अकृत्वा अत्र कृत्वा इत्यस्य नञ् समासस्य आकारः अकृत्वा अस्य अ इति एतदपि अव्ययमेव नञ् यद्वर्तते नञ् नञ्ज्ञपि अव्ययमेव अतः अतः तत् त्यक्त्वा यदि नञ्समासः भवति तदा त्वान्त एव अवशिष्यते न तु लेवादेशः भवति नञ्समासस्य निषेधार्थः यद्वस्तु वर्तते तस्य निषेधः कृत्वा नञ् नञ् इति प्रत्ययं तत्र कुत्र प्रत्ययग्रहणे पूर्वपरस्थाने इत्संज्ञकाः कानि अक्षराणि भवन्ति नञ् इत्यत्र केवलम् अकार एव अवशिष्यते न नकारं तस्य नकारं ञ च निर्गच्छतः
केवलम् अकारः
न एकः अनेकः नकारे तत्र अकार एव अवशिष्यते अकृत्वा अकृत्वा परसन्तापम् अगत्वा खलमन्दिरम् स्वशक्त्या यत् यत् कृतं यदल्पमपि तद् बहु इति
परन्तु तत्र ओ अस्ति आ नास्ति ओ
अव्ययम् इति उक्तं खलु
सूत्रे
उपसर्ग इति न उक्तम् अतः अकारस्यापि अव्ययं नञ्जापि अव्ययम् अव्ययं निपातानि निपाताः सर्वे अव्ययानि भवन्ति नञ् निपाते वर्तते उपसर्गाः अपि निपाते वर्तन्ते अतः सूत्रे समासेन अनिपूर्वे तोल्यप् इत्युक्ते यदा अव्ययेन सह क्रियापदस्य सम्बन्धः समासः भवति तदा इत्युक्तं तदा प्रश्नः भवति अनन् समासे कथं नञ्ज्ञपि अव्ययमेव नञ्ज्ञपि अव्ययमेव तर्हि तत्रापि अकृत्वा अकृत्या इति भवेत् अकृत्या इति तत्र अर्थव्यत्यासः एव अकृत्यम् इति अर्थः भवेत् अतः अनन् समासे अनन् समासे इति
तत्र यदि उपसर्गः नास्ति नैसमासः नास्ति अव्ययमस्ति परन्तु तस्य उदाहरणमस्ति वा
केवलम् अव्ययं समासे सति अलं गत्वा इति वक्तुं शक्यते तत्र अलं शब्देन सह तस्य समासः न वर्तते यदा समासः भवति तदा एव अन्यः बहिर्गत्वा इति न वक्तव्यं बहिर्गत्वा इत्येव अत एव तत्र उपसर्गपाठे बहिर्यन्तर् तथा सज्जी इत्यादि केवलं ज्ञापकार्थं सदृशः इति वक्तव्यं न तु साधारम् इति मया उक्तं बहिर्गत्वा इत्यत्र यदि उपसर्ग समानत्वेन स्वीकुर्मः तर्हि बहिर्गत्या इति वक्तव्यं भवति बहिर्गत्वा इति वक्तुं शक्यते अतः
तत्र स्वीकरोति तादृशम् अस्ति किल तत्र स्वी अपि नङ् वा स्वीकृत्वा स्वीकृत्य स्वी प्रयोगद्वयमपि साधु इति
स्वीकृत्य
स्वीकृत्य एव वा स्वीकृत्वा न वा न साधु
स्वीकृत्वा स्वीकृत्य स्वीकरो तत्र स्वशब्दात् आगतम् स्वीकृत्वा तस्य उपपदत्वात् तत्र द्वयमपि सम्भवति स्वीकरणं स्वी इति स्वी इति तत्र अव्ययेपि वा निपाते वा उपसर्गे वा न भवति अतः यथा बहिर्गत्वा बहिरागत्य इति यथा उच्यते तथैव वक्तुं शक्यते
परन्तु स्वीकृत्वा स्वीकृत्य द्वौ अपि साधु कथं नियमानुसारेण
तेषां तत्र अव्ययं यदा न भवति तदा साधुत्वमेव तदर्थमेव साधुत्वकरणे कोऽपि सूत्रस्य आवश्यकता न वर्तते
स्वी इति स्वी इति अव्ययपदं नास्ति
नास्ति
अतः एषः नियम एव
न भवति
अतः स्वीकृत्वा एव सदा पदनीयं किल स्वीकृत्वा एव
तथा न तस्मिन् विषये केवलम् अव्ययसम्बन्धे एषः नियमः पदार्थादिसम्बन्धेन अथवा तदेव उदाहरणं दत्तं बहिर्गत्वा बहिरागत्य
बहिरागत्य
तत्र बहिः यथा तथापि तथैव स्वी इत्यपि
अतः स्वीकृत्वा
स्वीकृत्य इति बहिरागत्य बहिर्गत्वा यथा द्वयोपि वक्तुं शक्यते एवमेव तत्रापि स्वीकृत्य स्वीकृत्वा द्वयोपि वक्तुं शक्यते
कथं स्वी स्वी एव तत्र स्वयमेव किमपि प्राप्नोति चेत् स्वीकृत्वा एव भवितव्यं किल
स्वीकृत्य इत्यपि स्वीकृत्य अर्थव्यत्यासः भवेदेव इति न वर्तते काशित्वा प्रकाशित्वा इत्यपि वक्तुं शक्यते प्रकाश्य
प्र
इति उपसर्गः अतः यदि तत्र उपसर्गकूटौ समागच्छति तदा विवादः सम्भवति तत्र स्वी बहि अन्तर् इत्यादि शब्दौ स्वी इत्यपि एकः स्वी स्वकीयं स्व इत्यादि पदानि वर्तन्ते निवेदयित्वा साधु एव निवेद्य इत्येव
भवितव्यं
तत्र आर्षप्रयोगः क्वचिदपि वाल्मीकिरामायणे महाभारते इत्यादय क्वचित् प्रयोगाः लभ्यन्ते आर्षप्रयोगत्वात् साधु निवेदयित्वा इति निवेद्य इत्येव वक्तव्यं न्यू तत्र वर्तते किन्तु आर्षप्रयोगे तस्मात् मुनेरपि मनोभ्रमः मुनेरपि मनोभ्रमः सर्वेषां वर्तते. रामस्यापि मनोभ्रमः. कुत्रापि स्वर स्वर्णमयी हरिणी न वर्तते, किन्तु तेन भ्रमः, तस्य भ्रमः भवति. एवमेव मुनेरपि मनोभ्रमः इति भ्रामकप्रयोगः. किन्तु तेषाम् आर्षत्वात् ऋषिकाले यत् प्रयोगः कृतः वर्तते तत् प्रष्टुं वयं के? के वयं? कर्णेभिः भद्रं कर्णेभिः शृणुयाम कर्णैः च वैतव्यं खलु कर्णेभिः इति कथं? वैदिकप्रयोगः तत्र कर्णेभिः इति. अतो भिस् ऐस् पाणिनि तत्र नास्ति. अतः तत्र कर्णेभिः इत्येव साधु. भाषा कापि भाषा परिवर्तनं लभते एव. तत्र पूर्वं मया यदा आगतं तदा एवमेव उक्तम्, उच्यताम् अबद्धा सुबद्धा इति न आलोचनीयं. भाषाप्रयोगं कुर्वन्तु कुर्वन्तु. तत्र पुल्लिङ्गो वा भवतु नपुंसकलिङ्गो वा भवतु तत्र चिन्ता न कार्य, परिष्कारः भवत्येव. एकः विषयः अवशिष्टः आसीत् उपसर्ग अधिकृत्य. यदि सन्देहः भवति अथवा अर्थः न भवति तर्हि भवन्तः पृष्टुमर्हन्ति. यथाशक्ति आङ्ग्लभाषायां वा हिन्दीभाषायां वा अहं वदामि. केवलं संस्कृतभाषायाम् उच्यते अर्थः न भवति इति चेत् सुबन्धः षड्लिङ्गेषु अजन्तपुल्लिङ्ग इति तत्र लिखितम् उपरि लघुसिद्धान्तकुमुदः. किन्तु भवद्भिर्निर्मितपत्रिकामपि स्थाप्य वक्तुं शक्यते. तत्र प्रथमम् एकम् अन्यं सूत्रं यथा अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति निवेशनीयं प्रारम्भे. तत्र कृतधितसमासाश्च इति वर्तते, तस्य पूर्वे, तस्य सूत्रस्य पूर्वे अर्थवदधातुरप्रत्ययप्रातिपदिकम् तदनन्तरं कृतधितसमासाश्च. सूत्रं द्वयमपि अर्थवत् सार्थकं भवेत्. सार्थकं यस्य अर्थः वर्तते तदनन्तरम् अर्थवत् अधातुः धातुना न भवितव्यं धातुः न भवेत् धातुं परित्यज्य धातुं परित्यज्य अर्थवत् अधातुः अप्रत्यय अप्रत्यय इत्युक्ते अत्र प्रत्ययं प्रत्ययान्तं च इति वृत्तिकारेण प्रत्ययान्तमपि निवेशितं प्रत्यय अप्रत्ययम् इत्यु केवलं प्रत्ययमात्रम् अत्र वर्तते अप्रत्ययः इति केवलम् अप्रत्ययः न प्रत्ययः तथा प्रत्ययान्तञ्च प्रत्ययः प्रत्ययान्तञ्च परित्यज्य धातुं प्रत्ययं प्रत्ययान्तञ्च परित्यज्य इति प्रत्ययस्योपरि एव तस्य अन्यत् प्रत्ययस्य आरोपः न भवितुं शक्यते हरिषु इत्युक्ते हरिषुषु इति न वक्तुं शक्यते प्रत्ययस्योपरि एव प्रत्ययस्य आगमनं न भवति अतः प्रत्ययस्य भवति प्रत्ययोपरि प्रत्ययस्य अत्र सोः सोर्लोपः इत्यादि उच्यते खलु सु इत्युच्यते सोर्लोपः इत्युक्ते तत्र सु इति प्रत्ययः वर्तते तस्य उपरि पुनः सोः इति षष्ठीभगिप्रत्ययः आगतः न तथा प्रत्ययं प्रत्ययान्तं पूर्वमेव यतः हरिषु इत्युक्ते हरिषुषु इति अनुक्तम्
हरिषु इत्यपि प्रातिपदिकं न
हरिषु इत्यपि न तज्ञे प्रत्ययः अपि एवमेव अन्ये ये प्रत्ययाः सन्ति तेपि तानेपि त्यक्त्वा ता अपि त्यक्त्वा प्रत्ययान्तं वर्जयित्वा शब्दस्वरूपं राम वृक्ष इत्यादि यत् शब्दस्वरूपं वर्तते किन्तु अधुना एव प्रश्नः आगतः तत्र हा प्रकाशेन इत्यादि वक्तुं शक्यते वा न वा कृदन्तस्वरूपः तद्धिते इति वर्तते तद्धिते जनकस्य अपत्यं कुमार स्त्री जानकी इत्यादि तद्धित प्रत्ययसम्बन्धे तथा प्रकाशं करोति इति प्रकाशः काशते इति काशः इत्यादि सन्दर्भे किम् इति प्रश्ने अतः एव उक्तं कृतद्धितसमासाश्च समासान्ते समासान्ते कृतद्धितप्रत्ययान्ते च तस्य कृतद्धितप्रया प्रत्ययान्तस्यापि प्रातिपदिकत्वं केवलं परित्याग धातोः अर्थवत्त्वं सर्वत्र धातोः प्रत्ययस्य प्रत्ययान्तस्य किन्तु प्रत्ययान्त इत्युक्ते तद्धित कृदन्तप्रत्ययं हित्वा यदि कृतद्धितप्रत्ययवत् पदं वर्तते तत्रापि अस्य प्रातिपदिकत्वं वर्तते एवम् अर्थवत् कृतद्धितसमास शब्दस्वरूपाणि ये वर्तन्ते तेषां प्रातिपदिकम् इति संज्ञा नामधेयं प्रातिपदिकम् इति नामधेयं प्रातिपदिकम् इति वदन्ति
उपसर्गाः अपि प्रातिपदिकम् उपसर्गाः अपि
न
उपसर्गः तेषाम् अर्थः नास्ति अर्थवत् भवितव्यं किल प्रश्नः
समीचीनः
अत्र तस्य षड्लिङ्ग इति सिद्धान्तकुमुदो वर्तते षड्लिङ्गम् इत्युक्ते शब्दाः पुंस्त्रीलिङ्गाः पुंनपुंसकाः स्त्रीनपुंसकाः तथा त्रिषुलिङ्गेषु समानाः तथा स्त्रीलिङ्ग पुल्लिङ्गनपुंसकः स्त्रीलिङ्ग पुल्लिङ्गशब्दाः स्त्रीलिङ्गशब्दाः नपुंसकलिङ्गाः केवलं पुल्लिङ्गे केवलं स्त्रीलिङ्गे केवलं नपुंसकलिङ्गे स्थिताः शब्दाः तदनन्तरं अनेके शब्दाः एवं वर्तन्ते पुल्लिङ्गे स्त्रीलिङ्गे इति नपुंसकलिङ्गे स्त्रीलिङ्गे तथा यथा सर्व अस्मद्युष्मद् इत्यादयः त्रिलिङ्गेषु अपि एवं षड्लिङ्गाः भवन्ति षड्लिङ्गेषु इति तत्र लघुसञ्चारं
भवति.
सप्तरतं भवति.
त्रयः अपि न भवन्ति वा? त्रिषु लिङ्गेषु अपि भवति वा? सप्त भवन्ति इति, यतः पुंलिङ्गस्त्रीलिङ्ग, स्त्रीलिङ्ग नपुंसकलिङ्ग, पुंलिङ्ग नपुंसकलिङ्ग, अनन्तरं
पुंलिङ्गस्त्रीलिङ्ग
सप्तलिङ्गानि
तत्र परित्यक्तानि, यथा सर्वनामशब्दे एव लभ्यन्ते.
त्रिषु लिङ्गेषु सन्ति न?
परित्यज्य सर्वनामशब्दानि, शब्दाः परित्यज्य उच्यते तत्र नामपदेषु एव. तत्र षड्लिङ्गा इति लिखितं, तदर्थं मया उक्तम्. सन्देहः मा भूत् इति. तत्र प्रथमं प्रातिपदिकत्वं, प्रातिपदिकस्य उपरि तत्र विभक्तिप्रत्ययानाम् आरोपः भवति, आदेशः. तत्र विभक्तिप्रत्ययाः सौजं सौजसम्मौ षष्टाभ्यां निर्म्याभ्यस् नित्यभ्याम्भ्यस् नसोसाम्योऽसु इति. सौजसमौ षष्टाभ्यां निर्म्याभ्यस् नसिभ्याम्भ्यस् नसोसाम्योऽसु. अय्यो, अल्पाक्षरम् असन्दिग्धं सारव विश्वतोमुखं सूत्रं सूत्रविदो विदुः. अल्पाक्षरं सन्दिग्धं सारवत् विश्वतोमुखम् अक्षु अस्तोभम् अनवद्यं च सूत्रं सूत्रविदो. अतः सूत्रमपि सूत्राणामेव अर्थः न भवति. तर्हि अध्यायनमपि नास्ति, पतञ्जलिरपि नास्ति. तत्र एकं एकैकमेव लिखित्वा गच्छामः. एकमेव सु औजस्, तत्र सु इति एकवचनस्य प्रथमाविभक्ति एकवचनस्य प्रत्ययः सु इति. और् इति प्रथमाविभक्ति द्विवचनस्य, जस् इति बहुवचनस्य. तत्र एकवचनं बहुवचनं द्विवचनम् इति कथम् इत्युक्ते, तत्र द्वयेकयोर्द्विवचन तत्रैव वर्तते. द्वि एकयोः द्विवचन एकवचने इति सूत्रे सूत्रं वर्तते. द्वेकयोर्द्विवचने एकवचने इति सूत्रं वर्तते. द्वेकयोः इति द्वि, एकयोः क्रमात् क्रमेण द्विवचनं एकवचनं इति नामधेयं. यत्र एकवस्तु अथवा व्यक्तिः वर्तते तदा एकवचनं, वस्तुद्वयं व्यक्तिद्वयं वा वर्तते तदा द्विवचनम् इति.
किमर्थं बहुवचनस्य विषयः
नागतः? तत्र बहुषु बहुवचनम् इति अन्यत्र बहुवचनसन्दर्भे बहुषु बहुवचनं तत्र वर्तते बहुषु बहुवचनम् एकस्मिन्नेव सूत्रे उक्तं यदि शक्यते एकमात्रालाघवं पुत्रोत्सवं मन्यन्ते वैयाकरणाः इति वैयाकरणां प्रसिद्धिः एकमात्रालाघवं तथापि अत्र अर्थवधातुप्रत्ययप्रातिपदिकं कर्तव्यतसमासाश्च इति सूत्रद्वयं किमर्थं कृतम् एकस्मिन्नेव वक्तुं शक्यते दीर्घां सूत्रं न कर्तव्यम् इत्युक्ते न वर्तते सोऽजस्य मूर्छस् तत्रैव वर्तते इत्युक्ते तत्र सूत्रेषु अदृष्टं पदं सूत्रान्तराद् अनुवर्तनीयं सर्वत्र इति वर्तते खलु तदर्थम् एवम् एकसु अर्थे एकसूत्रसम्बन्धे अपि सूत्रान्तरं सूत्रद्वयं त्रयं वा कुर्वन्ति एतदर्थं तस्य एतन्मयात्रस्य एतन्मात्रस्य उपयोगः कुत्रचित् भवति अन्ते अथवा अनुवृत्तिं कर्तुमपि आवश्यकः भवति तदर्थम् एकस्मिन्नेव सूत्रे वक्तुं शक्यते तथापि सूत्रद्वयं कृतं वर्तते एवमेव द्वैकयोर्द्विवचनैकवचने इत्युक्ते द्वैकबहुषु बहुष्वेकवचनद्विवचन बहुवचने बहुवचनाः भवन्ति अथवा बहुवचनाः इति न उक्तं वचनानि इति न उक्तं बहुषु बहुवचनम् इति अत्यन्तत्रैव तत्र प्रथमे राम इति प्रातिपदिकम् अर्थवत् अधातो अप्रत्ययः रामः तत्र कृत् इत्यपि भवितुं शक्यते अथवा रामः इति केवलं सार्थकं नामपदं नाम इत्यपि वक्तुं शक्यते राम रमयति रामशब्दस्य कृदन्तत्वमपि वर्तते अतः यथा वा भवतु कृदन्तो वा भवतु अथवा स्वयं वृक्षादिशब्दवत् स्वयं सिद्धोऽपि भवतु राम इति प्रातिपदिकत्वं रामशब्दस्य वर्तते तस्य उपरि सु इति सौजस्व अत्र सु इत्यत्र उपदेशे अजनुनासिकैत् इति प्रारम्भः सूत्रे वर्तते उपदेशे रज्ज्ञानुनासिक्या पाणिनीयाः पाणिनी मुनिं तस्य परम्परायां ये शिष्याः ग्रन्थकर्तारः वर्तन्ते तैः अनुनासिक्य अनुनासिक्यविषये तैः प्रतिज्ञातं तदेव हलन्त्यम् इति सर्वेषां हल् अक्षराणां इत्संज्ञा तत्र तत्र उपदेशे अजनुनासिक इति तत्र अच् स्वराणामेव के स्वराः इत्युक्ते अननुनासिका अननुनासिका स्वरा एव अननुनासिका इत्यत्र अत्र किमपि अस्माभिः प्रत्यक्षेण किमपि न उपलभ्यते अत्र सु इत्यत्र उ वर्तते अनुनासिको वा अनुनासिको वा सू इति तु न उच्यते अस्माभिः बहुशः बहु प्राचीनकाले यदा तत्र मुद्रणादिकं नासीत् तत्काले प्रत्ययादिषु स्थितानि यत्र इत्संज्ञा सापेक्षाणि अक्षराणि भवेयुः तानि बहुशः अनुनासिक्येन उच्चरन्ति स्म ऊहामात्रमिदं किन्तु सर्वत्रापि अन्ते व्यञ्जनो वा अथवा स्वरो वा भवतु तस्य लोपः भवति तस्य इत्संज्ञा इति नामधेयं भवति तदनन्तरं तस्य लोपः इति अतः रामासु इत्यत्र उकारस्य उपदेशे अजनुनासिक इत् सूत्रेण उपदेशे अजनुनासिक इत् इति सूत्रेण इत्संज्ञा प्राप्य तस्य लोपः इति
सुकारस्य लोपः भवति. सूत्रद्वयम् अपेक्षितं तत्र. उपदेशे अजन्नास्क इति एकं सूत्रं, यत्रापि हलन्त्यं तथा उपदेशे अजन्नासिक इति सूत्रं, सूत्रस्य आवश्यकता भवति. तत्र सर्वत्र तस्य लोपः इत्यपि, हा तस्य इतो लोपः स्यात् इति तस्य लोपः. उपदेशे अजन्नासिके तस्य लोपः इति तत्र उकारस्य लोपः भवति. तदा राम स इति अवशिष्यते. राम स इति अस्माकं किं कृतव्यं, रामः इति. तत्र सन्धिप्रकरणे, विसर्गसन्धिप्रकरणे सूत्रं द्वयं वर्तते. ससजुषो रुः, ससजुषो रुः. अत्र अन्यस्यापि एकस्य सूत्रस्य आवश्यकता वर्तते. तं विनापि शब्दसिद्धिं कर्तुं पारयामि. यदा विरामो अवसानम् इति, विरामो अवसानं, यत्र शब्दस्य अन्त्यभागे अन्यत् किमपि अक्षरं न भवति, तत् स्थानं विरामः इति संज्ञां लभते. अत्र राम स इति भवति, वर्तते. अत्र किमपि अन्यत् अक्षरं नास्ति, तस्मात् विरामस्थानं, अवसानं, पदस्य अवसानस्थानं विरामः इति संज्ञां लभते. पदस्य अवसानस्थानं स इति वर्तते. तत्र विरामः वर्तते, विरामो अवसानं. ससजुषोरुः इति सूत्रस्य तस्मात् कारणादेव प्रवर्तते. पदान्तस्य सजुषब्दस्य च, पदान्तस्य सजुष् सकारस्य सजुषब्दस्य च रुः स्यात्. रुः रुकार रु भवति पदस्य अन्ते यत् सकारः वर्तते, तस्य ऋकारादेशः भवति इति सकारस्य ऋत्वं. ऋत्वम् अधुना द्रविडभाषायाम् अयं रुः एव, रामरु कृष्णरु. तेलुगु ऋकारं डुकारं कृतवान् रु र ड ल रडलयोरभेदः. जडेरधिरूढे जलाधिरूढे जराधिरूढे र ल ड कारयोः तत्र साम्यम् उच्यते. अनेके कविभिः प्रयोगापि वर्तते. आदिन्द राम रु अवसाने इति अधुना
आगच्छति. रामरु रामरु कन्नडभाषायां नास्ति.
रामरु
रामर्
रामरपि
रामर् अस्ति, रामरपि अस्ति.
उपदेशजन्नासिक इति कृत्वा रामरु
रायरु अस्ति,
रायरु रायरु मन्दरु मावनमने
रामरु
रामवारु
अस्ति. वारु
रामरु नास्ति,
दू रामवारु
रामुलवारु.
ಅದು ಕರ್ನಾಟಕ ಭಾಷಾ ರೂಪ ಗಳು ಗಳವರು ಗಳವರು ಸಭಾಸ್ಥಾನ ಮುಖ್ಯಮಂತ್ರಿಗಳವರು ಬಂದಿದ್ದಾರೆ. ಎಷ್ಟು ಗಳ ಅವರಿಗೆ, ಎಷ್ಟು ರು ಮಂತ್ರಿ ಮುಖ್ಯಮಂತ್ರಿಗಳು ಅಂದ್ರೆ ಸಾಕು, ಮಂತ್ರಿಯವರು ಅಂದ್ರೆ ಸಾಕು, ಇಲ್ಲಿ ಗಳವರು. ಬಹುಶಃ ಬಹುವಚನ ತಸ ಅರ್ಥಾಂತರ ರಾಮರು. ಅಧುನಾ ಕರವಸಾನಯೋ ವಿಸರ್ಜನೀಯ, ಕರವಸಾನಯೋ ತತ್ರ ವರ್ತತೆ ಖಲು, ವರ್ತತೆ
ಉಪದೇಶ ಅನ್ನಿಸಿಕಿತ
ಪುನಃ ಉಪದೇಶ ಅಲ್ಲಿ ರು ಇತ್ಯತ್ರ ಉಕಾರಸ್ಯ ಲೋಪ, ಪುನಃ ಉಪದೇಶ ಅಜನ್ನಾಸಿಕ ಇತ್ತು.
पुनः उपदेशे उपदेशे तस्य लोभः अर्थः भवतु विसर्गः न न न विसर्गः न राम
रामर
पंपर तमिल रामर रामर रू रू वर्तते रू वर्तते रूनन्तरम् उपदेशे अजन्नासिक इत्येन उकारस्य लोपः भवति उकारस्य लोपानन्तरं राम ऋ अवशिष्यते अधुना खरवसानयो विसर्जनीयः खरवसानयो विसर्जनीयः इति सूत्रः प्रवर्तते करि अवसाने च परे रेफस्य विसर्गः खरवसानयोः विसर्जनीयः अस्य सूत्रस्य अर्थः खरि खरि इत्युक्ते खपचटतचटतौ कपै षटसर् खकारतः षटसर्पर्यन्ता अक्षराणि कर्कषव्यञ्जनानि तदनन्तरम् अवसाने पदस्य अन्त्यस्थाने यदा रेफः भवति सः विसर्गः भवति इति करवसानयोः रामः प्रकारस्य विसर्गः रामः
विसर्गस्य कदापि परिवर्तनं
विसर्जनीयस्य सः तत्र नमः करोति नमस्करोति पुनः सूत्रत्रयं सर्वासु भाषासु अपि एषां परिवर्तनं यदा तदा भवन्ति रसजशोरुः खरवसाने विसर्जनीयः विसर्जनीयस्य सः सजुषेव शब्दः
खर् कुत्र भवितव्यं
खर् अत्र नास्ति अवसानं वर्तते
अवसानमस्ति
खरि अवसाने च खरी परे अथवा अवसाने परे
ओहो खरी परे
अन्तःकरणं
तर्हि रेफस्य इत्युक्ते रकारः कुत्रापि भवेत् तस्य इति वा खरावसानयोः
रेफः कुत्रापि भवतु पदमध्ये भवतु अवसाने वा खरिपरे वा रेफस्य
अवसाने रामर् तस्य रामः अवसाने अभवत्
न करिपरेण अत्र करिपरस्य प्रवेशः एव नास्ति सूत्रे उक्तं खरिपरे वा अवसाने वा अत्र विरामोऽवसानमित्येव प्रथमं परिगृहीतं तदर्थं विरामे रकारः वर्तते कुत्रापि विरामे पदस्य अन्त्यभागे रकारः वर्तते तस्य विसर्गः अन्तःकरणमित्यत्र खरी प्रवेशः नास्ति तस्य कारणः उपद्मानीय इत्यादि
परन्तु अत्र रामशब्दे तु केवलम् अवसानम्
केवलम् अवसानमेव
स्पष्टं वा
आवश्यकं खरि अवसाने च परे खरि परे वा अवसाने परे वा अवसाने सकारानन्तरं किमपि अक्षरं नास्ति यत्र कुत्रापि अन्यत् अक्षरं न वर्तते विरामः बयलु
कृपया आङ्ग्लभाषा एकवारं वदति वा
अत्र केवलं रकारस्य विसर्गः भवति वा अन्यस्य वा
रकारस्य मात्र
केवलं रकारस्य
रकारमात्रस्य
रकारस्य नास्ति
मात्र
तद् अनुवृत्तः आगच्छति रकारस्य खरिपरे अथवा अवसानयोः
रेफस्य अनुवर्तते
रेफस्य
सूत्रेण वर्तते खरवसानयोर्विसर्जनीयः विसर्जनीयः कः विसर्जनीयः भवति इत्युक्ते रकारः इति कस्य विसर्जनीयत्वं रकारस्य इति अवसाने अत्र अवसान एव मुख्यं शब्देषु खरिपरे इति परत्वमेव न वर्तते खलु अत्र तत् सूत्रे अन्यत्रापि तस्य अन्यत्र उपयोगः भवद्भिरेव दृष्टः खलु तत्र विसर्गसन्धौ विशेषसन्धौ वर्तते
आङ्ग्लभाषया वदति वा कृपया इति आङ्ग्लभाषया
आङ्ग्लभाषायाम् इत्युक्ते
खरवसानयोः
खरि
खरवसानयोः विसर्जनीय
एट् द एण्ड् आफ् द एनी वर्ड् इफ् there is a ra repha that becomes visarga at the end of the word if repha rakara that becomes visarga now the last rama ra vartate rakasya agre in front of that na any word or akshara in a letter that's the end of this word so virame anti atah virama samjha data kharyavasaniyo
refasya iti atra nasti
ha nasti tantu vruttau tasya refasya visarjaniya bhavati kaha visarjaniya bhavati itukte repha ha repha रकारः इति अनुवर्तते अनुवृत्तिः ग्राह्या तत्र
सूत्रमत्र
किमपि तत्र विसर्गसन्धौ पश्यन्तु
विसर्गसन्धौ
तत् सूत्रं वर्तते
विसर्जनीयः इत्युक्ते
विसर्गः विसर्ग एव विसर्जनीयः एकोनविंशतितमे पृष्ठे वर्तते खलु एकोनविंशतितमे इति एकोनत्रिंशत्तमे ससजुषोरुः तृतीयं सूत्रं पदान्तस्य सस्य सजुषश्च रुः
स्यात्
तदनन्तरं करवसानयोः इति करवसानयोः पूर्वमस्ति सत्त्वसन्तु करवसानयो इति सप्तविंशति पृष्ठे खरि अवसाने च पदान्तस्य रेफस्य विसर्गः खरि अवसाने च पृष्ठसङ्ख्या सप्तविंशतिपृष्ठे तत्र खरवसानयोर्विसर्जनीयः
पूर्वसूत्रात् रो आगच्छति तस्य पूर्वसूत्रमध्ये रोरि
रोरि
रोरि तथा रो आगच्छति అవసాన
ఇత్యుక్తే ఏం దబ్దబల్
83
अत्र पदान्तः एव खरि इति प्रसक्तः अत्र नास्ति, तत्र विसर्गसन्धौ वर्तते।
पदं पूर्वं प्रायः मया श्रुतं, पदान्ते अपि आगच्छतु यत्र कुत्रापि आगच्छतु इति, परन्तु तत्र दुर् प्लस् ख तत्र पदान्तः एव अस्ति, रेफः तु पदान्ते
न न न खरिपरे खरिपरे सर्वत्र पदान्त एव भवितव्यं न इति। सुप्रकरणमात्रे सुप्रकरणमात्रे सुबन्तप्रकरणमात्रे अवसाने अत्र करवसानि कुत्र वर्तते संस्कर्ता विसर्जनीयः खरि अवसाने च पदान्तस्य रेफस्य विसर्गः सः अनुनासिकातुरुन् स्वराद् मोहरु
किं सूत्रं पश्यति
करिपरे इति उदाहरणं ददातु। सर्वत्र विसर्गरेफसन्धि यत्र यत्र विसर्गरेफसन्धिः भवति तत्र सर्वत्रापि इदमेव वर्तते एवं खरिपरे खरिपरे अत्र अन्ते अत्र खरि सूत्रे वर्तते इति अत्र अस्मिन् प्रकरणे खरिपरत्वस्य आवश्यकता
नास्ति।
अवसानमेव अवसानम् इत्युक्ते पदान्त इत्येव रामः तदनन्तरं राम राम औ राम राम औ द्वितीय स्वभव स्वरूपाणाम् एकशेष एकविभक्तौ अत्र सूत्रं वर्तते पश्यन्तु तत्र वर्तते स्वरूपाणां स स्वरूपा स्व इति न स्वरूपाणाम् एकशेष एकशेषविभक्तौ तत्र लघुसिद्धान्तकौमुदी वर्तते स्वरूपाणामेकशेष एकविभक्तौ एकविभक्तौ यानि स्वरूपाणेव दृष्टानि तेषाम् एक एव शिष्यते एकस्मिन् तत्र त्रयस्त्रिंशत् पृष्ठे वर्तते स्वरूपाणाम् एकशेषः एकविभक्तौ एकस्यामेव विभक्तौ केवलम् एकमेव पदं पुनः पुनः यदि आगच्छति तत्र एकमेव अवशिष्यते राम राम इति द्विवारम् आगतमत्र अतः द्वौ रामौ स्तः इति दर्शयितुं रामः 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 इति न वक्तव्यम् अधुना राम राम इति राम राम इति द्वौ रामौ इति वक्तव्यं तत्र
रामस्य द्वित्वं प्रदर्शयितुं राम राम इति दुरुक्तिः राम राम इति किन्तु यदा तस्य विभक्तिप्रत्ययस्य सम्बन्धः भवति तत्समये तत्र एक एव अवशिष्यते स्वरूपाणां स्वरूपाणाम् इत्युक्ते एक एकस्वरूप नाम पदं तत्र स्वरूपौ रामः रामः एकमेव एक एव शब्दः तदर्थात् स्वरूपः तत्र एकशेषः इत्युक्ते एक एव शिष्यते अतः अत्र एकस्य रामस्य लोपः एकस्य रामस्य लोपः तदा राम औ पुनः लिखितं व्या राम औ इति अवशिष्यते रामौ अधुना वृद्धिसन्ति वृद्धिरेचि 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 इति सूत्रेण वृद्धिसन्धि एचि परे वृद्धिः एकादेशः स्यात् इति राम औ वृद्धिसन्धि रामौ रामौ सुलभम् राम औ रामौ वृद्धि आदेश वृद्ध्यादेशं करणी आदेशः क्रियते अनन्तरं राम जस् अत्रापि राम 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 यस् त्रया एव इति न त्रयो रामाः पुराणे प्रसिद्धाः परशुरामः बलरामः राम अतः अत्रापि वयं रामत्रयं राम 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 अधुना वर्तते अयं रामः राम 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 तत्स्थाने जस् जस् लिखितं वा वृद्धि इत्यादि
त्रिवारं
बहुवचने द्वयोः द्विवचनसंज्ञा यदा दत्ता भवति तदा व्यक्तिद्वयद्रव्यस्य द्वयानन्तरं या संख्या भवति त्रयः चतुर्थः इत्यादि ते सर्वेपि बहुषु बहुवचनं बा इति कथं यत्र एकं वा द्वयं वा न वर्तते राम 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 जस् स्वरूपाणां पुनः स्वरूपाणां स्वरूपाणां सूत्रं स्वरूपाणाम् एकशेष एकविभक्तौ इति सूत्रम् अत्रैव वर्तते स्वरूपाणां स्वरूपाणां सूत्रं तदा रामद्वयं गतं रामः एकः अवशिष्टः राम जस् अधुना चुटु सूत्रं प्रत्ययाद्यौ चुटु इतौ इतौ स्तः प्रत्ययाद्यौ प्रत्ययेषु आदिभागे स्थिताः चवर्गटवर्गाः अथवा स्थितानि चवर्गाक्षराणि टवर्गाक्षराणि प्रत्ययस्य आदिभागे स्थितानि चवर्गस्य टवर्गस्य अक्षराणि किम् इत् संज्ञां लभन्ते इत् संज्ञां लभन्ते प्रत्ययाद्यौ चुटु इतौ स्तः चुटु चुटु
सर्वत्र इत्संज्ञस्य लोपः एव भवति वा
चुटु इत्युक्ते अत्र जस् इति जस् इति वर्तते अस्य चकारस्य चुटु सूत्रे पतितत्वात् चुटु सूत्रे पतितत्वात् चु इत्युक्ते चवर्गः ज इति चवर्गमध्ये पतितः पतितम् अक्षरम् अतः अस्य चकारस्य लोपः तदा अस् अवशिष्यते अस् अवशिष्यते अधुना प्रथमयो पूर्वसवर्णः तस्य प्रवेशः अत्र न भवति अतः एव अतः प्रथमद्वितीययोः अति पूर्वसवर्णदीर्घः एकादेशः स्यात् केवलविभक्तिसम्बन्धावेव अकः प्रथमाद्वितीययोः प्रथमाविभक्ति तथा द्वितीयाविभक्तियोः अकः अचि परे अत्र अकः राम इति अकः वर्तते तथा अच् परे अ इति अच् वर्तते तत्र पूर्वसवर्णदीर्घः रामास् 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 इति अभवत् सवर्णदीर्घः एव किन्तु तस्य सूत्रस्य अत्र प्रवेशः नास्ति तदर्थं प्रथमेव पूर्वसवर्णः इति अन्यं सूत्रं कृतवन्तः अस् रामास् प्रथमयोः इत्युक्ते द्विवचन प्राबल्येन प्रथमा द्वितीययोः प्रथमाविभक्ति द्वितीयाविभक्तियोः अकस्य पुरतः अकः पुरतः अचि परे यदि अच् भवति तदा पूर्वसवर्णदीर्घः पूर्वाक्षरस्य सदृशं दीर्घत्वं राम इति आ इति अकारस्य दीर्घत्वं नाम आ इति रामास् रामास् इति अभवत् पुनः तदैव ससजशोरुः करवसानयो विसर्जनीयः तत्र रामः इति वर्तते खलु सर्वभाषामयी सा इति अत एव रामास् यस् करेक्ट् रामास् रामास् तत्र ससजुषो
पुनत्रैव
ससजुषो करवसानि करवसानि सूत्रेण रामाः एकवचनं सम्बुद्धिः एकवचनं सम्बुद्धिः राम इति वर्तते राम राम सम्बोधन एकवचनं सम्बुद्धिः सम्बोधने प्रथमाविभक्ति एकवचनं सम्बुद्धिसंज्ञां लभते संज्ञा यदा संज्ञा दीयते तस्य किमपि कार्यं भवति एं ह्रस्वात् सम्बुद्धेः अन्यत् सूत्रम् अत्र वर्तते वा एकवचनं सम्बुद्धिः वर्तते
उपदेश अनुवादिकीता
अनन्तरं हा एङ्ग्रस्वात् सम्बुद्धे वर्तते हे राम वर्तते
अत्रैव वर्तते
एं
ह्रस्वात् सम्बुद्धेः ईङन्तात् ह्रस्वात्ताच्च अङ्गात् अल्लुप्यते सम्बुद्धेः सम्बुद्धिसम्बन्धेन यदा शब्दस्य अग्रे शब्दः ईङन्तशब्दः एं एवम् एकारान्त ओकारान्त तथा ह्रस्वान्त अ इ उ अ इ उ ह्रस्वान्तस्य तथा एकार ओकारान्तस्य च अग्रे यः अल् वर्तते अल् इति आल् ऐहुण्णिन्द कोनेय अल्वरिगुन् अल् इत्युक्ते सकलानि अक्षराणि माहेश्वरसूत्रे उक्तानि सकलानि अक्षराणि लोपं गच्छन्ति रामासु इति वर्तते राम इति ह्रस्वान्तं ह्रस्वान्तस्य अग्रे अल् वर्तते अधुना सम्बद्ध एकवचनं सम्बुद्धि इत्युक्तत्वा अत्र सम्बोधिसंज्ञा वर्तते सम्बोधने एव ये तथा ह्रस्वान्तस्य रूपा उक्तम् अतः रामशब्दस्य अग्रे या सु वर्तते तस्य लोपः सुलोपः तत्र इत्यादिकरणस्य आवश्यकता एव नास्ति यदा सुकारस्य एव लोपः भवति सु तदा राम अधुना तव इष्टेन पूर्वे हे भो रे हरे
परन्तु सर्वाणां प्रत्ययानां लोपः भवति वा
सर्वाणाम् इत्युक्ते
न सु अत्र
सम्बुद्धो मात्र
सम्बुद्धो
सर्वेषां सम्बुद्धिः न उक्तं किल द्वितीया तृतीया चतुर्थी इत्यादि विभक्तिषु सम्बुद्धिः न वर्तते यत्र सम्बुद्धिः इति सम्बुद्धिः इति निवेशनं भवति तत्रैव अधुना प्रथमाविभक्तस्य एकवचनं यद् वर्तते तस्यैव यदा सम्बुद्धिः इति नाम देयं दीयते तत्सन्दर्भे एषां लोपः रामासु शुकसु कार्यस्य लोपः नान्यत्र
सम्बुद्धिः इत्युक्ते सम्बोधनं
सम्बोधनं सम्बुद्धिः इत्युक्ते सम्बोधनं एकवचनं सम्बुद्धिः प्रथमाविभक्ति एकवचनं सम्बुद्धिः असंज्ञं स्यात् प्रथमाविभक्तिः एकवचनस्य सम्बुद्धिः इति संज्ञा तदनन्तरं तत्रैव सूत्रे एकस्वात् सम्बुद्धेः सम्बुद्धिवचनस्य अन्ते एम् अथवा ह्रस्वं यदि भवति तस्य अग्रस्थितस्य प्रत्ययस्य लोपः अग्रे स्थितस्य प्रत्ययस्य लोपः अत्र एङन्तं नास्ति किन्तु ह्रस्वान्तं वर्तते रामस्य अग्रे सु वर्तते तस्य लोपः हे मुने तत्र तत्र मुनिशब्दसन्दर्भे उच्यते एत्तम् उच्यते हे मुने इति हा इकारस्य एत्तम् उच्यते गुण गुण गुणः कर्तव्यः तत्र तत्र ओत्तुं भवति शम्भो भानो इत्यत्र तत्र अन्यत् अत्र वा तदनन्तरं द्विवचन द्विवचन बहुवचनेषु रामो रामः केवलं प्रथमाविभक्ति द्विवचने बहुवचने यद् रूपं तदेव रामौ रामः हा रामः रामः हे राम हे इति भो इति किमपि आ इति ये इति ओ इति किमपि
तर्हि द्विवचने एकवचनं सम्बुद्धिः तस्य आवश्यकता नास्ति
तत्र लोपः कर्तव्यः खलु अत्र लोपः न वर्तते द्विवचने बहुवचने
लोपः
भवति अत्र अतः एव केवलम् एकवचनस्यैव उक्तम्
अत्र करपत्रे नास्ति
द्विवारम् आवश्यकता
नास्ति केवलं
मया
एकवचने एव आवश्यकम्
हे राम इत्यत्रापि एकवचनं सम्बुद्धिः इति लिखितं तस्य आवश्यकता नास्ति
किमर्थं
अत्रापि एकवचनं सम्बुद्धिः आवश्यकता नास्ति हे राम इति
तर्हि हे रामौ इति सम्बोधना एव नास्ति किं हे रामौ इति
सम्बोधनं वर्तते तत्र लोपार्थं तस्य विशेषसंज्ञा दत्ता
तर्हि किमर्थम् एकवचनं सम्बुद्धिः
इत्युक्ते सुकारलोपार्थमेव तत्र वचनत्रयमपि यदि गृहीत्वा नियमः क्रियते तत्र लोपः न भवति तत्र हे रामः हे रामो हे रामाः एव भवेत् अतः हे राम इति तत्र सु विसर्गस्य वा सुकारस्य वा लोपार्थमेव एकवचनं सम्बुद्धिः इति केवलम् एकवचनमात्रे सम्बुद्धिः इत्युक्तं सम्बुद्धिः इति सम्बोद्धिः सम्बोधनसंज्ञा त्रयाणामपि वर्तते अत्र विशेषतः सम्बुद्धिसंज्ञा इति दत्ता लोपकरणार्थमेव
अत्र दोषः अस्ति वा यथा विठल् महोदय
करपत्रे
करपत्रे
एकवचनं
सम्बुद्धिः रामो रामा इत्यत्रापि न लिखितं तत्र आवश्यकता नास्ति एकवचनं कथं तत्र सूत्रप्रवृत्तिरेव न भवति तत्र
किन्तु अत्रापि अन्यत् सूत्रेषु स्वरूपाणां एषु विभक्तौ तस्य आवश्यकता अस्ति
खलु वर्तते
हे राम
प्रथमाविभक्तौ यत्
तस्य आवश्यकता
या प्रक्रिया वर्तते प्रथमाविभक्तौ तत्सर्वमपि सम्बोधनेपि तथा द्वितीयाविभक्तिद्विवचनेपि तथैव प्रक्रिया तत् रामं रामौ रामान् इत्यत्र अधुना राम
रामं
रामम् इत्यत्र एकवचनस्य एकवचनम् इत्यत्र द्वयोके एकवचने इति भवेत् अमिपूर्वः अमिपूर्व तत्र वर्तते सूत्रम् अमिपूर्वः एकवचनः सौजस् अत्र अम् इति भवति सु औजस् अम् औट् शस् अत्र अम् इति विभक्तिप्रत्ययः सुम् तत्र अमिपूर्वः इति सूत्रेण अको अमि अचि पूर्वरूपम् एकादेशः पूर्वरूपम् एकादेशः
अको अकः
अचि अकः अकः परस्य अकः अचि परे पूर्वरूपम् एकादेशः कुत्र अमि अम्परे सति अर्थात् अकः अम्परे अम् प्रत्ययस्थितस्य अकारस्य पूर्वरूपः न मकारस्य अत्र अकारः मकारस्थित अकारेण सह पूर्वरूपं गच्छन् रामम् रामम्
पूर्वरूपम् इत्युक्ते
पूर्वरूपम् अन्ते पूर्वशब्दस्य अन्ते यत् अक्षरं वर्तते तत् स्वरूपं पुरतः आगतं यत् अक्षरं वर्तते तत् लभते नो चेत् तत्र रामाम् इति भवेत् रामाम् इति भवेत् प्रथमयोः पूर्वसुवर्णः इति सूत्रस्य यदि प्रथमयोः इत्युक्ते द्वितीयाविभक्तिरपि तत्र गृहीतं तथा भवेत् अतः अमिपूर्वा इति विशेषसूत्रम् अमिपूर्वा इति विशेषसूत्रेण तत्र अचः अचिपरे परस्थाने स्थितः यः अच् वर्तते तस्य पूर्वरूपं पूर्वपद अन्त्यवर्णस्य स्वरूपमेव सः लभते तत्र लीनो भवति इत्यर्थः रामं मकारस्य न अन्त्यत्युक्ते तत्र अचिपरे इत्युक्तम्
मकारः यथावत् तथैव अवतिष्ठते एवं रामं रामौ रामौट् इति चुटु चुटु हलन्त्यं सूत्रेण टकारस्य लोकः रामाम् औट् स्वरूपाणामेकदेश एकरूपम् इति एक एव रामः अवशिष्यते रामा औट् इति वर्तते तत्र टकारस्य हलन्त्यं सूत्रेण इति संज्ञा तस्य लोपः इति टकारस्य लोपः राम औट् इति राम औट् तस्य
पुनर्वृद्धिरादेशः
राम औट् वृद्धिः वृद्धिः रामौ रामौ रामौ
कदा इत् आगच्छति कदा न आगच्छति किमपि किमर्थं तत्र औट् आवश्यकम् औ एव
अतः तस्याः प्रथमाविभक्तेः द्वितीयाविभक्तेः अपि वैविध्यं दर्शयितुम् अवति
ओ एवं अतः औच् किमपि
केवलम् औट् रामा रामा औच् वृद्ध्यादेशः राम औ टकारस्य लोपः हलन्त्यं सूत्रेण टकारस्य लोपः राम राम पूर्वम् एकं रामं निवेशयामः राम 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 औट् अत्र एकं सूत्रं लशक्व तद्धिते लशक्व तद्धिते अरे नकारमात्रस्य अनुवृत्ति अत्र अतद्धिते इति सूत्रेण वर्तते लशक्व तद्धिते मुन्दे इन्नू वर्तते अग्रे अग्रे अत्रैव वर्तते इतोप्यधिकम् पुस्तकस्य पत्राणि अत्रैव
तस्य लोपः
जातः तस्य लोपः गीतं पत्रं
प्राप्तं
लोपः लोपः इति ममापि एतैव स्थितिः स्यात् इति औट् प्रथममेव औट् अभवत् न शक्व तद्धित तद्धित वर्जयित्वा तद्धितप्रत्ययं वर्जयित्वा अन्यत्र प्रत्ययस्य आदिभागे स्थिताः ल श कवर्गाः ल श ग ख ग घ ङ अक्षराणि ल श कु इत्युक्ते कवर्ग
ल श कु अत्तदिते
तद्धित प्रत्ययं वर्जयित्वा प्रत्यय आद्यस्थाने स्थितानि ल श क ख ग घ ङ अक्षराणि इत्संज्ञां लभन्ते इत्संज्ञां
लभ्यते
चुटु चुटुस्य प्रवेशः नास्ति
चुटु इव
आदि
आदिभागे प्रत्ययस्य आदिभागे एव
अत्रापि आदिभागे एव
चुटु इव
चुटु इव तथा चुटु तथा औट् इत्यत्र न उक्तम् औट् इत्युक्ते हलन्तम् इत्युक्तम् प्रत्ययाद्यौ चुटौ
इत्युक्तौ
प्रत्ययाद्यौ अन्यसूत्रं श्रुत्वा मया नञ्जद्यारः कर्तव्यः इत्युक्तं दशको तद् अत्र एव वर्तते लाशा कु कु इत्युक्ते कुचुटु तु पूयते उदितः तत्र प्रारम्भे संज्ञा प्रकरणे आगतं कुचुटु तु कु इत्युक्ते वर्गः उ इति उ इक्वल् वर्गः उ इति इक्वल् वर्गः उ इत्युक्ते कवर्गः चु इत्युक्ते चवर्गः एवमेव
परन्तु अन्तिम अक्षरं
न किल न गानं भवति तस्य तत्र प्रवेशः अस्ति वा न वा इति तत् सन्दर्भे एव निर्णयः किन्तु कु इत्युक्ते क ख ग ग ङ चु इत्युक्ते च च ज ञ
अग्रे ङीस् आगच्छति ङीस् मध्ये ङ गच्छति
लशक्को तद्धिते तदा लशक्को तद्धिते सूत्रेण
तस्य लोपः
लशक्व सूत्रेण तत्र शकारस्य लोपः तदा राम अस्ति तस्माच्छसो नः पुंसि अधुना तस्माच्छसो नः पुंसि सूत्रान्तरं तस्माच्छसो नः पूर्वसवर्णदीर्घात् परः यः शः अधुना राम अस्ति पूर्वसवर्णदीर्घं प्रथमयोः पूर्वसवर्ण इति सूत्रेण रामास् इति भवति प्रथमयोः पूर्वसवर्ण प्रथमयोः पूर्वसवर्णसूत्रेण रामास् भवति अधुना ससुजिष्णोः विसर्जने करवसाने विसर्जनमिति रामः इति भवेत् इत्येव तस्माच्छसो न पुंसि तस्माच्छसो नः पुंसि नः न इति नः नकारः इत्यर्थः नः इत्युक्ते नकारः नः पुंसि पूर्वसवर्णदीर्घात् परः यः शसः सः तस्य नकारः पुल्लिङ्गे एव पुल्लिङ्गे पुल्लिङ्गशब्दसम्बन्धे पुल्लिङ्गशब्दसम्बन्धे एव अयं नियमः एतत् सूत्रं प्रवर्तते पुल्लिङ्गे रामः पुल्लिङ्गः अतः अत्र पूर्वसवर्णदीर्घात् परः सकारः रामास् इति प्रथमयोः पूर्वसवर्ण इति सूत्रेण अत्र प्रथम सवर्णदीर्घः वर्तते रामास् इति वर्तते तस्मात् आकारस्य उत्तरे स्थितः सकारः न भवति
किमर्थं प्रथमाविभक्ते रामास् तत्र ससजुषोः रुः सूत्रम् आगतम् अत्र किमर्थम्
अत्र सा आगच्छेत् इत्येव विशेषसूत्रम् अत्र वर्तते तस्माच्छसो न पुंसि इति यदि तस्माच्छसो न पुंसि इति सूत्रं न वर्तते तत्र ससजुषोरुः करवसानियो विसर्जने आगत्य तत् कुर्वन्ति अग्रे कुर्वन्ति स्त्रीलिङ्गे अधुना अतः एव पुंसि इति प्रत्येकतया अत्र उक्तम् पुल्लिङ्गे इति तत्सर्वमपि द्रष्टव्यं नो चेत् तत्रैव वसामः तत्र शास्त्राभ्यासः एवं शास्त्रतः भाषा उपयोगे किं लभ्यम् अस्माभिः अत्र लब्धव्यम् यदि शास्त्रमेव अभ्यसामः तर्हि न कुत्रतः आगतः इत्यादि अनुवृत्ति सर्वमपि सूत्रम् अग्रे वर्तते वा पूर्वे वर्तते वा इत्यादिकं परिशीलनं भवति तत्तु विदुषामपि अगम्य एव अगम्य इत्युक्ते मुखतः पुस्तकं दृष्ट्वा एव वक्तव्यं भवति अष्टाध्यायीं गृहीत्वा अस्मात् सूत्रः आगतम् इति तत्रापि क्वचित् सन्देहः वर्तते सूत्रद्वयोरपि अनुवृत्तिः भवितुं शक्यता वर्तते तत्र कदा भाष्यादिपठनं कैयटादिपठने तस्य सिद्धिः भवति सर्वत्र अनुवृत्तिं कुत्र पश्यन् गच्छामः अनुवृत्तिदर्शनं तस्य तादृशं तत्र तादृश उपकारमपि नास्ति अतः तावदावश्यकता तावत् तस्मात् सोऽंशे राम प्रथमयो सूरानन्तरं तस्मात् च स्वसूत्रेण तस्मात् सूत्रेण नकारः कस्मात् शसः शस् इति वर्तते तस्य शस् इति प्रत्ययस्य यः सकारः सम्पूर्णस्य शकार शसस्य इति न शस् इति प्रत्ययः प्रत्ययः वर्तते तस्य प्रत्ययस्य सकारस्य नत्वम् अतः यदि शस्य इत्येव उच्यते तत्र लशकृतत् इति सूत्रस्य आवश्यकता एव न भवति यत्र शसः वर्तते पुल्लिङ्गं पुल्लिङ्गे प्रथमा द्वितीयाविभक्तिबहुवचने यत् शस् वर्तते शस् इत्युक्तत्वादेव द्वितीयाविभक्तिबहुवचनम् इति तत्र लभ्यते शस् इत्युक्तत्वादेव अर्थात् प्रथमा द्वितीयाविभक्तिबहुवचने यत् सकारः तत्तु तत् शका शस् प्रत्ययस्य शस् इत्युक्ते यदि लशको तद्यते तत् अस् कर्तव्यं खलु यदि अस् न क्रियते रामास् इति न भवति लशको तद्यते सूत्रेण शकारस्य लोपं कृत्वा तदनन्तरं रामास् इति पूर्वसवर्णं कृत्वा तदनन्तरं प्रश्नः अतः शसः सकारस्य सम्पूर्णस्य शसः न सम्पूर्णस्य शस् प्रत्ययस्य न शसः सकारमात्रस्य शशिस्थाने या सा वर्तते तस्य नकारादेशः रामान् इति
किमर्थं तत्र प्रथमं यदा भवान् उक्तवान् राम प्लस् शस् तदा एव एतत् कुर्मः चेत्
रामः
न भवति
शश अवशिष्यते तदा सकारस्य ऋत्वमध्ये रामशन्
रामशन्
रामशनि
रामागच्छति
तत् सूत्रे उक्तं तस्य पूर्वसवर्णदीर्घस्य अन्ते शसः यद्वर्तते अतः प्रथमं पूर्वसवर्णदीर्घः कर्तव्यः तदनन्तरं शसस्य सकारस्य नकारादेशः कर्तव्यः भवति तस्मात् शसो न पुंसि अस्य अर्थः पूर्वसवर्णदीर्घात् परः शसः यः सकारः पुल्लिङ्गे तस्य सकारस्य न त्वम् प्रथमं तद् भवितव्यं पूर्वसवर्णानन्तरं तत् पुल्लिङ्गो वा स्त्रीलिङ्गो वा इति दृष्ट्वा पुल्लिङ्गश्चेत् नकारः कर्तव्यः राम
नियमान् लिखित्वा अनन्तरं
सूत्रं प्रथमं
पदान् लिखित्वा अनन्तरं नियमान्
द्वयमपि वर्तते द्वयमपि इत्युक्ते उदाहरणं प्रथमं तत्र राम राम इति पदमेव लिखितं भवति यतः प्रथमपदस्य शब्दस्य एव अभावे तस्य प्रत्ययस्य आगमनं कुत्र अतः प्रथमं तत्र तत्सूत्रं यत् सूत्रं वर्तते अर्थवदातृप्रत्ययप्रातिपदिकम् इति प्रातिपदिकस्य निवेशनं प्रथमं प्रातिपदिकस्य निवेशनं तत् द्वयमपि वर्तते कुत्रचित् प्रथमं पदप्रयोगः तदनन्तरं सूत्रप्रयोगः यत्र अपवादादयः भवति तत्र प्रथमं प्रयोगः तदनन्तरं सूत्रम् अधुना अपवादस्वरूपेणैव आगतं ह्यस् इति पूर्वं निर्दिष्टं वर्तते तस्य अपवादत्वेन आगतः नकारः नकारस्य आदेशः यदि शसः एव पूर्वं तत्र प्रक्षेपः नास्ति न किमर्थम् आगतः नकारः अतः सर्वत्र एतद्वयमपि सम्भवति उदाहरणं प्रथमं दृष्टान्तः प्रथमं भवति तदनन्तरं सूत्रम् एवमपि वर्तते सूत्रानन्तरं दृष्टान्तस्य निक्षेपः भवति सः सन्दर्भानुसारमेव तत् अत्र तु रामस्थिति कृत्वा एव तदनन्तरं तस्य प्रवेशः यदि रामास्थिति न तत्र न वर्तते तर्हि तस्य तस्माच्छुसो न पुंसि सूत्रस्य प्रवेशः एव न भवति अतः प्रथमं रामास्थिति कर्तव्यं तदनन्तरं तस्माच्छुसो न पुंसि इति सूत्रप्रयोगः इति वर्तते अधुना टाङ्गसिंहसा मिनाक्ष्याः सूत्रं वर्तते लिखितं वर्तते वर्तते वा
वर्तते
वर्तते
आगतं पुनः टकारलोपः राम
टाङ्गसिंहसामिनाक्ष्याः तस्य अर्थः अकारान्तस्य अदन्त अकारान्तस्य पुरतः नसि नस् अकारान्तस्य पुरतः यत् टा नसि नस् वर्तते तेषाम् इन् काव्यसिंहसाम् इन् आ स्याः स्या इन् आ स्या इति आदेशः भवति
क्रमेण
इन् आदेशः
नसि इत्यस्य
नसि इत्यस्य नस् इत्यस्य स्यः
तर्हि किमर्थं चुटु आवश्यकं न
आवश्यकं
परन्तु सूत्राधारेण तु
टा इत्येव उक्तं तस्य आगत्य टा उपरि एव कर्तुं
शक्यते
ताकारे एव उक्तत्वात् तस्य चुटु प्रवेशः अत्र लिखितं वा
दोषः स्यात् अत्र पश्यतु अत्र पाणिनिपुस्तकमस्ति तत्र प्रायः
उट्टङ्कनं कृतवान् वा
नै नै तद् परिचितं मया न उट्टङ्कितम्
प्राधान्येपि एवं तत्र न तत्र अनूर्त्यादिविचारे सूत्रप्रवेशे इति विचारे तत्र सपादषष्ठाध्यायीं प्रति त्रिपादशीत्याध्यायनियमाः बहुशः परिशीलनीयाः भवन्ति तत्र अधिकारसूत्रम् आदेशसूत्रम् इत्यादि विभागः वर्तते तद्विभागम् इत्य विधिसूत्रस्थाने तस्य पूर्वत्वात् अन्यस्य कोऽपि प्रवेशः न भवति एवम् अनेके नियमाः तत्र वर्तन्ते केवलं पूर्वभावित्वम् अपरभावित्वमेव तत्र सूत्राणाम् आगमने कारणं न भवति न भवति अस्तु सामान्यनियमः अत्र चुट्टुः आवश्यकता नास्ति स्पष्टतया टाङ्गसिंहसामिनाथ इत्युक्तत्वात् टाकारस्थाने एव इनादेशः टा गच्छति राम इन् गुण गुण तदनन्तरं नत्वं
नत्वं
रामेण
रामेण
अभवत् किं कर्तव्यं अट्कुप्वाङ्गुव्यवायेपि अट्कुप्वाङ्गुव्यवायेपि
अट्कुप्वाङ्गुव्यवायेपि
नोणः कन्नडभाषायां नोणः तत्र आगच्छति नोण इति तत्र नोणेपि प्रथमं नकारः तदनन्तरं नकारः वर्तते नोणः नोणः तत्र आगच्छति इति पाठावसरे अट् कुप् नुं व्यवायेपि
तर्हि रामेण अभवत् वा कथं
अट्
अट् इत्युक्ते तत्र प्रत्याहार कर्तव्य अयौ रुरु एवम् अयौ हयवरट् हयवरट् पर्यन्त स्वर तथा अवर्गीय तथा कवर्ग पवर्ग अट् कवर्ग पवर्ग आकार अनुस्वार अत्र नुम् इति वर्तते नुम् इत्यस्य न नकारम् इति न अर्थः अनुस्वारः इत्यर्थः नुम् इत्युक्ते अनुस्वार एतैः एतेषु एकैकमपि वा अथवा समस्तैरपि वा व्यस्तैस्समस्तैर्वा एकैकमपि अथवा समस्तमपि यदि आगच्छति तदा रसाभ्यां परस्य रकारषकाराभ्यां परस्य रकारषकाराभ्याम् अग्रे स्थितस्य नकारस्य नकारं नकारः भवति नकारस्य प्रथमं सम्पूर्णपदे शब्दे रकारः षकारः अस्ति वा इति द्रष्टव्यम् अत्र राम इत्युक्ते रकारः वर्तते रकारः वर्तते रकारः तस्य नकारस्य अत्यन्तं समीपे एव वर्तव्यम् इति तु न
मध्ये
रामेण इति वृद्धः रानन्तरं मा कारः अपि वर्तते तदनन्तरं व्यस्तैः मिलितैः वा यथा आगच्छति चेत् तस्य नकारस्य नत्वम् व्यवाये तत्र मध्ये स्थिते मध्ये व्यवधाने कृते व्यस्तैः यथासम्भवो मिलितैः व्यवधाने कृते व्यवाये इत्युक्ते व्यवधाने व्यवधाने इति इत्युक्ते मध्यप्रवेशे कृते मध्ये अक्षरद्वयोर्मध्ये प्रवेशे कृते
नकारस्य
कृतेपि
नकारस्य
न नकारस्य नकार
परन्तु नकारः तु मध्ये न आगतम्
मध्ये अत्र र न मध्ये मकारः आगतः खलु
मा वर्तते
अतः कृष्णेन
अट् कवर्ग पवर्ग पवर्ग मा पवर्ग खलु रामेण इति व्यवाय इत्युक्ते व्यवधाने मध्ये प्रविष्टे इत्यर्थः रकारः रकार षकार अग्रे स्थित नकारस्य मध्ये अट् पवर्ग कवर्गस्य अनुस्वारस्य आकारस्य प्रवेशे कृते तदा नकारस्य न तदापि न अन्यदपि एकं सूत्रम् आवश्यकं पदान्तस्य इति अट्कुप्वाङ्गीत्यधिकृत्य पदान्तस्य पदान्तस्य बेकागिल न पदान्तस्य इति अन्यत्र नकारस्य निषेध अधुना नकारस्य अत्र रामेण अत्र नकारस्य नकारः रामेण
परन्तु तत्र नकारः अन्ते एव यत्र कापि भवति न न भवति
अग्रेवणं रावणम् मध्येपि
तत् किम् अग्रे वनं रावणं तत् किम् उक्तवान् भवान्
अग्रे
तत्रापि वर्तते वर्तते स्मरणे आगतम् अग्रे वनम् इति वनम् इति वनम् इति अभवत् अग्रे वनम् इति प्रत्यज्य अग्रेवणरावणे इत्युक्तेपि नत्वमेव भवति अग्रेवणं रावणं तत्र अनुस्वारं परित्यज्य अग्रेवणरावणं तत्र अग्रेवणरावणम् इति न भवति अग्रेवणरावणम् इत्येव उक्तं तदा नकारस्य मध्ये पतितं समासमध्ये आगतं किल तद् भवतु किन्तु मध्ये स्थितः इति पुनः नत्वं न भवति अन्ते न वर्तते समासमध्ये आगता तस्मात् नकारः पुनः पूर्वरूपं धारयति इति न रामायणमपि तथैव तत्र अट् वर्तते खलु या यकारः वर्तते रामायणम् इति या वर्तते यकारः वर्तते रामेण रामाभ्याम् इत्यादि कदाप्यतां राम राम इति स्वरूपाणामेष इत्यादि राम रामाभ्याम् इति भवेत् अतः सुपि च सूत्र सुपि च यञादि यञ् आदि सुप् परे सौजस्य इत्यस्य सुप् इति अर्थः यञ् आदि यवरट् लण् नमगणनं झबल् यञ् आदि सुपि परे केवल सुप्रकरणे सुबन्तस्यैव सुपि परे अतोङ्गस्य अकारान्तस्य दीर्घः दीर्घः
दशनिमिषेषु गच्छन्ति
रामाभ्यां एकं रूपम् आवश्यकम् तदनन्तरं राम 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 सोजस्वम् औषष्टाभ्यां भिस् अतः राम थ्री टैम्स् राम थ्री मीन्स् न तु प्लुतः राम इति न राम थ्री टैम्स् राम सूत्रम् अतो भिस् भिस ऐस् भिसः ऐस् अतः भिसः ऐस् अकारान्तस्य अत् इत्युक्ते तपरस्तत्कारस्य तात्परः यः अक्षरः वर्तते तत्कालस्य एव भोज्यम् अत् इत्युक्ते अकारमात्रस्य इत्यर्थः अतः इत्युक्ते अकारमात्रस्य अकारान्तस्य भिस् सुपः ऐस् आदेशः स्यात् भिसः ऐस् भिस् होगि
ऐस्
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 तदनन्तरं ससुजुषोरु करवसानि रामैः अकारान्तस्य मात्रस्य अकारान्तमात्रस्य अन्य स्वराणां न
सर्वे
भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
स्वाहा पुनः